अस्तु, अस्माकं सन्धिवर्गे गीताप्रवेशस्य प्रथमपाठस्य अवलोकनं सञ्जातम्। इतः अग्रे गत्वा द्वितीयपाठात् आरभ्य स्वरसन्धिः इति पाठः आरभ्यते, तदनन्तरं हल् सन्धिः अथवा व्यञ्जनसन्धिः अपि च विसर्गसन्धिः इत्यपि आगच्छति। यथा वयं जानीमः, अस्माकं वर्गे सूत्रसहितपरिशीलनं भवति सन्धीनाम् इति कृत्वा। एकं करपत्रमस्ति, पाणिनीयं सूत्रं कथं पठनीयम् इति, तत् करपत्रम् अद्य किञ्चित् पठेम। सर्वेषां पुरतः करपत्रं स्यात्, अस्ति खलु? पाणिनीयं सूत्रं कथं पठनीयम् इति
अस्ति।
हा अस्तु, रामप्रिया भगिनी आरब्धुम् इच्छति वा?
आं भगिनि, पाणिनीयं सूत्रं कथं पठनीयम्। यण् सन्धिं बहवः जानन्ति, यदा यदि योगः अपि ई य भवति, यद्यपि अत्र इकारस्य स्थाने यकारादेशो भवति। इकारस्य स्थाने यकारः इति व्याकरण लोके एकं कार्यम् इति उच्यते। व्याकरणे कार्याणि एतादृशानि भवन्ति। आदेशः, पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः। यदि योगः अपि इकारस्य स्थाने यकार आदेशः, यद्यपि। आगमः, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः। पठन् योगः आगच्छति, नकारस्य आगमः, नूतननकारस्य आगमः। पठन्नागच्छति, लोपः, वर्णस्य अधर्षणं। बालकः योगः इच्छति, अत्र विसर्गलोपः भवति, बालक इच्छति।
समीचीनं भगिनि, एतत्तु सामान्यविचारः, वयं जानीमः एव। यण् सन्धेः उदाहरणं दत्वा अत्र प्रदर्शितमस्ति यत् आदेशः भवति, इकारस्य स्थाने यकारः आगच्छति इति आदेशः, पुनः पठन् आगच्छति इति दर्शयित्वा तत्र न कोऽपि वर्णः गच्छति, परन्तु इतोपि एकः नूतनवर्णः आगच्छति इति कृत्वा आगमः। तदनन्तरं लोपः, विसर्गस्य लोपः, इमानि कार्याणि जायन्ते सन्धिकरणसमये। इतोपि एकं कार्यम् अस्ति, स्मरति वा रामप्रिया भगिनी?
प्रकृतिभावः इति कार्यं, तद् तावदेव तिष्ठति, किमपि परिवर्तनं न भवति इति।
हा हा, समीचीनं। तर्हि प्रथमपाठे एव वयं दृष्टवन्तः, आदेशः, आगमः, लोपः, प्रकृतिभावः इति इमानि कार्याणि भवन्ति सन्धिकरणसन्दर्भे। अष्टमे पुटे न, सप्तमे पुटे अस्ति पुस्तके, सर्वे परिशीलयन्तु अनन्तरम्। अस्तु, इदानीम् अग्रे सरेम। सूत्रस्य माध्यमेन पाणिनिः कथं कार्याणि निर्दिशति इति अस्माकं करपत्रस्य मूलविचारः अस्ति। तर्हि अग्रे सरेम इतः। अस्तु भगिनी, अग्रे पठतु कृपया।
कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति। यण् सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं सूत्रम् अस्ति। सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम। यण् सन्धेः विधिसूत्रम् इदम्। इको यणचि, इकः स्थाने यण् आदेशः भवति अचीपरे संहितायां विषये। इकः यण् स्यात् असवर्णे अचीपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्। इकः षष्ट्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदम् इदं सूत्रम्। संहितायाम् इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रम् इकः, यण्, अचि, संहितायाम्।
हा, अग्रे अपि पठतु भगिनि, पठित्वा सारांशत्वेन वदतु किमस्ति इति।
उपरितने सूत्रे इक्, यण्, अच् इति त्रयः प्रत्याहाराः सन्ति। प्रत्याहारः नाम वर्णानां समूहः। एषु त्रिषु प्रत्याहारेषु के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु। अत्र इकः, इको यणचि इति एकं सूत्रम् अस्ति, तत्र यदा इकः यण् अचि इति अस्ति ते तु प्रत्याहाराः सन्ति. एकं कार्यं भवति यदा इक् इकः स्थाने यण् आदेशः भवति तथा अचि परे अस्ति चेत् भवति इति विषयः. प्रत्याहारः वदनीयं भवति.
अन्य कोऽपि वदतु, अभ्यासः भवति. धन्यवादः भगिनि. अस्तु अग्रे सन्ध्या भगिनि, इदानीं भवती वदतु इक् प्रत्याहारे के के वर्णाः सन्ति.
एकनिमिषः,
पुस्तकं पश्यतु, पञ्चमपुटं पश्यतु पुस्तके. सर्वे पश्यन्तु पुस्तके पञ्चमपुटं, तत्र माहेश्वरसूत्राणि इति अस्ति खलु. इदानीं भगिन्या यत् सूत्रं पठितम् इको यणचि इति, तस्य अर्थः अस्ति इकः स्थाने. इकः इति षष्ट्यन्तम् अस्ति, जगत् जगतः इति अस्ति खलु, तथा इकः षष्ट्यन्तम्. इकः स्थाने यण् आदेशः भवति. यण् आदेशः कदा भवति? यदा इकः परः कोऽपि अच्वर्णः अस्ति चेत् तदा. तर्हि अस्मिन् सूत्रे त्रयः प्रत्याहाराः निर्दिष्टाः, इक् यण् अच् इति. तर्हि भवती वदतु अधुना इक् प्रत्याहारे के के वर्णाः, यण् प्रत्याहारे के वर्णाः, अच् प्रत्याहारे इति.
एक उदाहरणम् आम् कृपया, अहं न अवगच्छामि भवत्याः अवगच्छामि परन्तु.
अस्तु, पञ्चमपुटं पश्यति वा?
आम्.
तत्र माहेश्वरसूत्राणि इति अस्ति, पश्यति वा?
आम् आम्.
हा, तत्र प्रथमसूत्रं किमस्ति?
आ इ उन्.
आ इ उन्. द्वितीयसूत्रं किमस्ति? हा, इदानीम् अहम् अक् इति प्रत्याहारम् इच्छामि चेत् अक् प्रत्याहारे के के वर्णाः भवन्ति?
आ इ उ ण ऋ ऋ ख.
हा, भवत्या सर्वं सम्यक्तया उक्तं, किन्तु प्रत्याहारस्य अन्तिम, तत्र माहेश्वरसूत्राणि सन्ति खलु, तत्र सूत्रस्य अन्तिमव्यञ्जनमस्ति अ इ उ ण इति अन्तिमव्यञ्जनं, णकारः अन्तिमव्यञ्जनं. तर्हि तद् त्यक्त्वा वक्तव्यं भवति के के वर्णाः सन्ति इति चेत् अक् प्रत्याहारे अ इ उ ऋल् ऋ इत्येव वर्णाः सन्ति. अस्तु अस्तु, इदानीं भवती वदतु इक् प्रत्याहारे के के वर्णाः सन्ति, इक् इति प्रत्याहारः. हा, समीचीनम्, इक् प्रत्याहारः. तर्हि सूत्रे इकः इति अस्ति, तस्य अर्थः अस्ति यत् इक् स्थाने, नाम इ उ ऋल् ऋ इति एते वर्णाः भवन्ति चेत् तेषां स्थाने यण् आदेशः भवति इति. यण् प्रत्याहारे के के वर्णाः सन्ति
पुनः वदतु? यण्
यण् यण् प्रत्याहारे
यण्
हा, समीचीनमस्ति. तर्हि इकः स्थाने यण् आदेशः, नाम इक् प्रत्याहारे ये वर्णाः सन्ति तस्य स्थाने यण् प्रत्याहारस्थवर्णाः आगच्छन्ति. कदा? अचि परे इति. अच् प्रत्याहारे के के वर्णाः सन्ति भगिनि?
अच् बहूनि सन्ति,
वदतु एकवारम्.
अ इ उ ऋ ऋ
हा, तर्हि सर्वे स्वराः एव खलु तस्मिन् प्रत्याहारे, पश्यति वा?
आम्.
व्यञ्जनानि न सन्ति. तर्हि अच् इति प्रत्याहारः स्वराणां सूचकः अस्ति. प्रत्याहारः इत्युक्ते वर्णानां समूहः, सङ्ग्रहः, अथवा ग्रूप् इति वदामः खलु, तावदेव प्रत्याहारः. प्रत्याहारः कदा, कुत्र आरभ्य कुत्र पर्यन्तम् इति सूत्रेषु उक्तमस्ति. नाम इक् प्रत्याहारे यथा भवती उक्तवती इ ऊ ऋल् ऋ, यण् प्रत्याहारे यवरल पुनः अच् इति प्रत्याहारे सर्वे स्वराः अ इ उ ऋलृ ए ओ ऐ औ इति. अस्तु, तर्हि प्रत्याहाराणां साहाय्येन अपि च प्रत्याहारेषु विभक्तिं स्थापयित्वा पाणिनिः सूत्रेषु कार्यं निर्दिशति, सूत्रैः कार्यं निर्दिशति. प्रत्याहारः अपि अस्ति सूत्रेषु, अपि च प्रत्याहारस्य विभक्तिः विभक्तिरूपमपि अस्ति. तर्हि विभक्त्याः महत्त्वम् अस्ति पाणिनीयसूत्रेषु. अद्यतनविषयः सः एव, विभक्तिद्वारा कथं पाणिनिः विधिम् अथवा कार्यं निर्दिशति इति. अस्तु भगिनि, अग्रे पठतु सन्ध्या भगिनि. इको यणचि.
इको यणचि इति सूत्रं यथा तथा पाणिनेः उष्टाध्यायी इति
अष्टाध्यायी
इति ग्रन्थे बहूनि सूत्राणि सन्ति. तानि सूत्राणि कार्यं निर्दिशन्ति इत्यस्य माध्यमेन.
कस्य माध्यमेन? हैली कोडिफैड् लाङ्ग्वेज् इत्यस्य माध्यमेन इति उक्तमस्ति खलु.
ओके, अस्तु. ऐ थॉट इट वाज़ अ टाइपो. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां संख्या न्यूनातिन्यूनं स्यात्. तर्हि संख्यापार्थं कोड् निर्मितं पाणिनिनाः कोड् इत्यस्य माध्यमं किं विभक्तिः इयं विभक्ति पञ्चतिः
पद्धतिः
का इति अग्रे पश्येम.
एकनिमिष भगिनि. कस्यचित् गृहे ध्वनिः अस्ति, अन्यत् किमपि कुर्वन्तः सन्ति चेत् कृपया म्यूट् कुर्वन्तु. लघुध्वनिः अपि, किञ्चिदपि ध्वनिः भवति चेत् अस्माकं बाधा भवति कान्फरेन्स् काल् मध्ये. अस्तु, धन्यवादः भगिनि. किम् अवगतं सन्ध्या भगिनि?
अग्रे पठामि अथवा
न? किम् अवगतं भवती यद् पठितवती तत्र किं बुद्धम्?
यदा अहं पठामि अवगन्तुं न शक्नोमि.
अस्तु, साहाय्यम् अपेक्षितम्. अस्तु, अभिनवमहोदय किञ्चित् वदति वा?
आं भगिनि.
सन्ध्या भगिनी यत् पठितवती तमेव भागं किञ्चित् पठित्वा वर्णयतु.
इको यणचि इति सूत्रे इकः प्रत्याहारः यत्र भवति तथा षष्ट्यन्तं यण् प्रत्याहारे प्रथमान्तम् अचि प्रत्याहारे सप्तम्यन्तं भवति. तथापि अन्यानि सूत्राणि सन्ति, तानि ते सूत्रे लघु सूत्रं स्यात्. तर्हि हैली कोडिफैड् लेङ्ग्वेज् इति लिखितम् अस्ति.
हा, अत्र अत्र कोडिफैड् अस्ति, सत्यमेव कोडिफैड् अस्ति. इको यणचि, इको यणचि इत्युक्ते इकः यण् अचि, इकः इति विसर्गसन्धि भूत्वा इको इति जातम्. अस्तु, तर्हि अवश्यं कोडिफैड् अस्ति. तर्हि कोड् इत्यस्य निर्माणार्थम् अथवा संक्षेपार्थं पाणिनिः कस्य उपयोगं करोति? सत्यं, प्रत्याहारस्य इति तु अवश्यम् अस्ति. अनन्तरम् अत्र किम् अन्यत् किम् उक्तम् अस्ति? विभक्तिः, विभक्तिः इत्यस्य उपयोगं करोति पाणिनिः. तर्हि विभक्तिपद्धति का इति अग्रे पश्येम. नाम पाणिनिः इकः यणचि इति वदति खलु, प्रत्याहारस्य माध्यमेन किं करोति, किं जातम् अत्र? लाघवम् अथवा लघुत्वं जातम्. इत्युक्ते सन्ध्या भगिनी यथा भवती पठितवती, इक् प्रत्याहारे बहवः वर्णाः सन्ति खलु, इ उ ऋ लृ. हा, यण् प्रत्याहारे अपि बहवः वर्णाः, य व र ल वर्णाः सन्ति खलु. तर्हि पाणिनिः किं करोति, इक् स्थाने यण् इति वदति. अस्तु, लाघवार्थं, नो चेत् सूत्राणि कथं भवति, इ स्थाने यकारः, उ स्थाने वकारः, ऋ स्थाने रकारः, ऋ ल तथा भवति खलु. यण्सन्धिविधायकसूत्रं, यण्सन्धि यण्सन्धेः विधिः तथा एव, इ स्थाने यकारः, उ स्थाने वकारः, तथा भवति. तस्य वदनस्य अपेक्षया यदि पाणिनिः अतीव लघुमार्गेण इको यणचि इति वदति चेत् तत् पर्याप्तम्. अनेन वयं जानीमः यत् इकः स्थाने, इकः इति षष्ट्यन्तं, नाम इक् वर्णस्य स्थाने यण् आदेशः भवति इति वयं जानीमः, प्रत्याहारस्य माध्यमेन अपि च विभक्तिमाध्यमेन. अत्र विभक्तिमाध्यमेन कार्यं कथं भवति इति अद्यतनमुख्यविषयः करपत्रस्य. इत्युक्ते प्रत्येकं विभक्तेः एकः अर्थः अस्ति. षष्टिविभक्तेः एकः अर्थः अस्ति, प्रथमाविभक्तेः एकः अस्ति, पञ्चमीविभक्त्याः अपि एकः अर्थः अस्ति. पाणिनीयव्याकरणे अर्थः कः इति अद्यतनविषयः अस्ति. तर्हि अत्र संक्षेपार्थं कोड् निर्मितमस्ति पाणिनिना, तद् कोड् एव विभक्तिः. अवगतम्? सन्ध्या भगिनी,
अहम् अन् सन्धि अथवा सन्धि तत् अर्थात् अवगच्छामि, परन्तु इको यनचि न, तत् किम्?
अस्तु, इको यणचि इति यण् सन्धि विधायकं सूत्रं, विधायकम् इत्युक्ते आर्डेन् करोति. अस्तु, इको यणचि इत्यनेन इकारः उकारः यदा भवति तस्मात् परे यदि अच् वर्णः कश्चन भवति चेत्, स्वरः भवति चेत्, तदा यण् प्रत्याहारस्थवर्णाः आदिष्टाः भवन्ति इति सूत्रस्य अर्थः. एतत् सर्वं पाणिनिः लघुना मार्गेण इको यणचि इति उक्त्वा वदति.
तर्हि किं वर्णाः, अर्काः वर्णाः?
भवती उक्तवती खलु, इक् इति प्रत्याहारे चत्वारः वर्णाः खलु, यण् इति प्रत्याहारे चत्वारः वर्णाः, अच् इति प्रत्याहारे स्वराः. यण् सन्धि कदा भवति, इकारः अस्ति अथवा उकारः अस्ति तस्मात् परः यः कोऽपि स्वरः अस्ति चेत् तदा यण् सन्धिः भवति खलु, यदि योगः अपि यद्यपि इति खलु, रामप्रिया भगिनी यत् पठितवती तथा. तत् सर्वं कार्यं पाणिनिः एकेन सूत्रेण वदति. अस्तु, अग्रे गत्वा अवगच्छति, चिन्ता नास्ति. अधुना सवर्णदीर्घसन्धेः सन्धेः आरभ्य वयं यदा पठामः तदा अवश्यम् अवगच्छति. अधुना एतद् अवगच्छतु यत् प्रत्येकं विभक्त्याः एकः अर्थः अस्ति पाणिनीयसूत्रेषु, तद् किम् इति अग्रे गत्वा पठेम. अस्तु, अभिनवमहोदय, अग्रे पाणिनीयः सूत्राणां.
पाणिने सूत्राणां पद्धतिः पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति अमुकवर्णस्य स्थाने अन्यवर्णः अमुकवर्णः लुप्तः अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति येषां कार्याणां संकेतार्थं विभक्तयः प्रयुक्ताः सन्ति तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति पाणिनीयसूत्रेषु विभक्त्यर्थाः के इति अधः सूचिताः अत्र
वदतु महोदय
विभक्त्यर्थाः के इति सूचिता अस्ति
पाणिनेः प्रमुखलक्ष्यमस्ति पदव्युत्पत्तिः खलु अग्रे ततः अग्रे
पदव्युत्पत्तिः
व्युत्पत्तिः इत्युक्ते निष्पादनम्
निष्पादनम्
इत्युक्ते क्रियेशन् व्युत्पत्तिः तस्मिन् अर्थे पदानां व्युत्पत्तिः अथवा निष्पादनं पाणिनेः प्रमुखलक्ष्यमस्ति अस्तु अग्रे
पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि निष्पन्नानि इत्युक्ते
निष्पादनं निष्पन्नं व्युत्पत्ति समानार्थकं
पदानि कथं व्युत्पत्ति भवति इति सूत्रेण विरचितानि
सत्यं पदानि कथं निष्पन्नानि इति प्रदर्शयितुं सूत्राणि विरचितानि
अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि अतः सूत्रस्य उपयोगं विशिष्टकार्याणि विशिष्टकार्ये भवति अमुकवर्णस्य स्थाने अन्यवर्णः अथवा आदेशः अमुकवर्णः लुप्तः अथवा लोपः अमुकवर्णः आगतः अथवा आगमः इत्यादीनि विभिन्नकार्याणि सन्ति तानि कार्याणि सूत्रेण लभ्यते येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति अत्र विभक्तयः उपयोगः जातः
हा सत्यं विभक्तीनाम् उपयोगः जातः सूत्रेषु इति अर्थः खलु
तदर्थलोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थः किञ्चित् भिन्नः सन्ति अन्ये स्थाने वयं विभक्तीनां किञ्चित् भिन्नम् अर्थः जानीमः किन्तु अत्र विभक्तीनां किञ्चित् भिन्नः अर्थः अस्ति
हा इति एव वार्ता अस्ति पाणिनीयसूत्रेषु विभक्तीनाम् अर्थाः के इति अधुना जानीमः अग्रे पठतु महोदय
पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचितः अतः पाणिनीयसूत्रेषु अर्थाः का सन्ति इति अधोलिखितभागे सूचितः षष्ठीविभक्तिः स्थाने यदा भवति तर्हि स्थाने प्रथमाविभक्तिः यदा भवति तदा आदेशः आगमः अथवा नामकरणम्। सप्तमी विभक्ति यदा भवति तदा पूर्व कार्यम्। पंचमी विभक्ति यदा भवति तदा पर कार्यम्। तृतीय विभक्ति यदा भवति तथा संयोजनम्।
संयोजनम् अस्तु। षष्ठी विभक्ति स्थाने इति उक्तं खलु, तत् किम् इति अग्रे पश्यामः। किन्तु लोके लोके षष्ठी विभक्त्याः प्रयोगं कृत्वा एकं वाक्यं वदतु। सामान्यवाक्येषु कथं भवति षष्ठी विभक्तिः इत्युक्ते?
अस्माकं देशस्य नाम भारतवर्षः अस्ति।
हा, अस्माकम् इति षष्ठी नाम सम्बन्धं सूचयति। मम देशः, मम नाम इति सम्बन्धः अस्ति खलु। सामान्यलौकिकभाषायां षष्ठी विभक्ति द्वयोः वस्तुनोः सम्बन्धं सूचयति। मम दूरवाणी, मम देशः, मम नाम इति। किन्तु पाणिनीयसूत्रेषु षष्ठी विभक्तिः इत्युक्ते स्थाने, कस्य स्थाने आदेशः, आगमः अथवा नामकरणं भवति इति सूचयति। यत्र कुत्रापि षष्ठी विभक्ति भवति पाणिनीयसूत्रेषु, यथा इकः यणचि इत्यस्मिन् इकः हलन्तशब्दः, तस्य षष्ठी विभक्ति, तत्र स्थाने इकः स्थाने किमपि भवति अधुना इति सूचयति। प्रथमविभक्तिः तु जानीमः, यत्र आदेशः, आगमः, नामकरणम् इति कुत्रचित् भवति चेत् पाणिनीयसूत्रेषु, तत्सर्वं प्रथमाविभक्त्यामेव भवति। सप्तमी विभक्ति लौकिकभाषायां तस्य प्रयोगः कथं भवति महोदय?
यत्र किञ्चित् स्थाने अथवा
वाक्यं
यथा वाक्यं तस्मिन् नगरे एकः एकः गृहः आसीत्।
हा, नगरे अथवा ग्रामे एकं गृहम् अस्ति इति वदामश्चेत् तत्र ग्रामे सप्तमी विभक्ति इत्युक्ते तस्मिन् इत्यस्मिन् अर्थे, अधिकरणम् अथवा उत्पीठिकायां दूरवाणी अस्ति, तत्रापि सप्तमी विभक्ति अस्तु। हा, सामान्यभाषायां तथा, किन्तु पाणिनीयसूत्रेषु सप्तमी विभक्तिः इत्युक्ते पूर्वकार्यम् इति। इत्युक्ते अग्रे पश्येम, तत्र उदाहरणानि सन्ति। अचि, अचि इति सप्तमी विभक्ति अन्तपदम्। अचि इति सप्तमी इति अस्ति इति कृत्वा अचि इत्यस्मात् पूर्वं यत्किमपि भवति अथवा यः कोऽपि वर्णः भवति तत्र कार्यं भवति इति निर्देशः, इति पूर्वकार्यम्। पञ्चमी विभक्ति उदाहरणं ददातु एकम्।
वृक्षात् पत्राणि पतन्ति।
हा, वृक्षात् पत्राणि पतन्ति, अपादानं नाम सपरेशन् यत्र भवति तत्र पञ्चमी विभक्ति। परन्तु पाणिनीयसूत्रेषु परकार्यं पञ्चमी विभक्तिः अस्ति चेत् पञ्चमी विभक्तियुक्तपदं यद्भवति तस्मात् परः यः कोऽपि वर्णः भवति तत्र कार्यं भवति इति। तृतीया विभक्ति उदाहरणं ददातु।
मया पुस्तकं पठनीयम्।
हा, मया पुस्तकं पठनीयम् इति कर्मणि प्रयोगः, नाम सामान्यतया वदामश्चेत् अहं
रामे।
हा, वदतु।
अहं वाहनेन गृहं गच्छामि।
समीचीनम्। अहं वाहनेन गृहं गच्छामि अथवा चमसेन खादामि, हस्तेन खादामि, तादृश अर्थः भवति लौकिकभाषायां लौकिकव्यवहारे। परन्तु पाणिनीयसूत्रेषु तृतीया विभक्तिः इत्युक्ते संयोजनम् अथवा मेलनं, तत् कथं कार्यं करोति इति अग्रे पश्येम। अस्तु, समीचीनमस्ति। अग्रे विद्या भगिनी पठति वा?
भगिनि, षष्ठी विभक्तिः स्थाने सूत्रे यस्य वर्णस्य अथवा प्रत्याहारस्य षष्ठी विभक्तिः भवति सः स्थानी भवति। इत्युक्तौ तस्य स्थाने अन्यवर्णः आयाति। कः वर्णः आयाति तस्य स्थाने? तस्मिन् एव सूत्रे यः वर्णः अथवा प्रत्याहारः प्रथमाविभक्त्यन्तः सः। उदाहरणं, इको यणचि इकः स्थाने यण् आदेशः भवति इकः षष्ट्यन्तं यण् प्रथमान्तम् इकः यण् अचि संहितायाम् अत्र षष्ठीविभक्तिः पाणिनेः सूत्रे षष्ठीविभक्तिः इत्युक्ते स्थाने इत्युक्ते यस्य वर्णस्य षष्ठीविभक्तिः भवति तस्य स्थाने किमपि अन्यवर्णः आदेशः आगमः भवति इति अर्थः उदाहरणार्थम् इको यणचि इकः स्थाने
भगिनि हा बहु समीचीनतया उक्तम् एकः एव परिष्कारः प्रायः अहमपि तथा उक्तवती केवलम् आदेशः आगच्छति न तु आगमः इति वक्तव्यं यतोहि आदेशः एव कस्यचित् वर्णस्य स्थाने आगच्छति आगमः तु एवमेव आगच्छति खलु
हा हा
हा समीचीनम् अग्रे
इको यणचि इकः स्थाने यण् आदेशः अत्र इक् इक् प्रत्याहारस्य इ उ रु इति वर्णः तेषां स्थाने यण् प्रत्याहारस्य ह य वाराल कश्चन वर्णः आदेशरूपेण आगच्छति अत्र इकः यन्तम् अस्ति यण् प्रथमान्तम् अस्ति अत्र इकः षष्ट्यन्तम् इत्युक्ते स्थाने तस्य स्थाने इति अर्थः
हा यण् प्रत्याहारे के के वर्णाः
यवरल
हा समीचीनं यवराल इति वर्णाः आदेशरूपेण इकः स्थाने नाम इ ऊरुलृ एतेषां स्थाने यण् प्रत्याहारस्थ किञ्चन वर्णः कश्चित् वर्णः आगच्छति इति सूत्रं वदति तर्हि षष्टिविभक्तिः इत्युक्ते स्थाने इति अर्थः अत्र कस्यचित् प्रश्नः वा अथवा भ्रमः अस्ति वा एतानि सूत्राणि अथवा एतान् नियमान् उपयुज्य एव अग्रे गत्वा स्वरसन्धिः हल्सन्धिः इत्यस्य चर्चा अपि भविष्यति तर्हि सन्देहः अस्ति चेत् कृपया अधुनैव पृच्छन्तु अस्तु स्पष्टं स्यात् तर्हि षष्टिविभक्तिः इत्युक्ते स्थाने कस्य स्थाने आदेशः इति सूचयितुं षष्टिविभक्त्याः प्रयोगं करोति सूत्रेषु पाणिनिः अस्तु भगिनि अग्रे
प्रथमाविभक्तिः इत्युक्ते आदेशः आगमः नामकरणं सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति सः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः सूत्रे तादृशः षष्टिविभक्त्यन्तः वर्णो नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तवर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न अतः तस्य नाम आगमः अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका अत्र प्रथमाविभक्तिः इत्युक्ते आदेशः भवति अथवा आगमः अथवा नामकरणं सूत्रे यस्य वर्णस्य स्थाने आगच्छति तदस्ति प्रथमाविभक्तिः आदेशः इति इको एनर्जि अस्मिन् सूत्रे इकः स्थाने यण् प्रथमाविभक्त्यन्तम् अस्ति तद् आदेशः अस्ति यदि यस्य वर्णस्य प्रथमविभक्तिः अस्ति तत् आगमः अपि भवितुम् अर्हति तद् कस्य वर्णस्य स्थानेन आगच्छति तद् यथावत् आगच्छति अपि च पाणिनेः सूत्रेषु संज्ञासूत्रम् इति अस्ति तत्र नामकरणमपि भवति कस्मिन्नपि पदस्य विवरणं भवति तत् नामकरणम् इति अस्ति संज्ञासूत्रमिति
हा समीचीनमस्ति अस्तु तर्हि अधुना षष्टिविभक्ति इत्युक्ते स्थाने प्रथमाविभक्ति इत्युक्ते आदेशः आगमः अथवा नामकरणम् इत्येषां सूचिका इति स्त्रीलिङ्गपदं सूचकः इति पुल्लिङ्गपदं तर्हि विभक्ति स्त्रीलिङ्गपदमस्ति अतः सूचिका इति अस्तु प्रथमाविभक्ति एतेषां सूचनां ददाति आदेशः आगमः नामकरणम् इति एतस्य उदाहरणं किं किम् अस्ति इति अग्रे पश्येम बालसुब्रह्मण्यमहोदय पठति वा अग्रे महोदय बालसुब्रह्मण्य महोदय अस्ति किं?
क्षम्यताम् अहं आदेशः इको यणचि इकः स्थाने यण् आदेशः भवति इकः षष्ठ्यन्तं यण् प्रथमान्तम् इकः यण् अचि संहितायाम् इतोपि पठामि
अत्र अत्र वदतु महोदय तर्हि प्रथमान्तं प्रथमान्तं किमस्ति अत्र किं पदं
प्रथमान्तम् अत्र यण् इति पदं प्रथमान्तं
हा यण् इति पदम् अत्र कस्य स्थाने आगच्छति
स्थाने इति यण् इति प्रथमविभक्ति प्रत्याहारः यरलव इत्यादि
अत्र उदाहरणमस्ति आदेशस्य खलु तर्हि कस्य स्थाने
प्रथमभक्ति स्थाने तस्मात् आदेशः इकः वर्णस्य स्थाने आदेशः भवति
हा समीचीनमस्ति तर्हि इक् वर्णस्य स्थाने यण् वर्णः आगच्छति इति कृत्वा यण् इति प्रथमान्तं प्रथमान्तम् इत्युक्ते प्रथमाविभक्त्याम् अस्ति तत् पदं यण् इति पदं सूत्रे अस्तु अग्रे महोदय
आगमः लुङ् लङ् ऋङ्ष् डुधत्तः इति सूत्रं लुङ् लङ् लृङ् च परे चेत् धातुरूपी अङ्गस्य अडागमः भवति अडागमो भवति लुङ् लङ् लृङ् सप्तम्यन्तम् अट् प्रथमान्तम् उदात्तः प्रथमान्तम् अङ्गस्य अट् उदात्तः लुङ् लङ् लुक्षुष
लृङ्क्षु
लुङ् लङ् लृङ्क्षु सो अत्र लुङ् लङ् लृङ् इत्यादि परे अस्ति धातुरूप अङ्गस्य अट् आगमः भवति इति लुङ् लङ् लृङ् च परे अस्ति चेत् अट् आगमः भवति
हा इति सूत्रं वदति तर्हि सूत्रे सूत्रे प्रथमाविभक्त्यन्तपदं किमस्ति
अत्र अट् अट्
अट् अट् इति प्रथमान्तं हा प्रथमान्तं तर्हि उदात्तः अपि प्रथमान्तम् अस्ति तर्हि तद् किमस्ति
उदात्तम् विशेषणमस्ति अट् पदस्य विशेषणम्
हा हा समीचीनं तर्हि अस्मिन् सूत्रे लुङ् लङ् लृङ्क्षु अडुदात्तः इत्यस्मिन् सूत्रे लुङ् लङ् लृङ्क्षु इति तु सप्तमी सप्तम्यन्तं यथा सामान्यपदं भवति खलु गृहेषु वनेषु तद्वत् लुङ् लङ् लृङ् इति एकः समूहः लुङ् लङ् लृङ्क्षु इति सप्तम्यन्तम् अस्तु तद् त्यजामः अधुना आगमः कः अस्ति अत्र अट् इति आगमः आगमः सर्वदा प्रथमाविभक्त्या एव सूचितः भवति अतः तदर्थम् अट् इति प्रथमान्तम् उदात्तः इति तस्य विशेषणमस्ति यथा वयं सुन्दरः बालकः इति वदामः खलु तत्र विभक्तिः समानमेव भवति विशेषणविशेष्यस्य तद्वद् तावदेव
अत्र लुङ् लङ् लृङ् इत्यादि सर्वे अपि सप्त सप्तमी विभक्ति तस्मात् अड् एतानि एतानि पदेषु पुरतः अस्ति पूर्वमेव आयाति अङ्गस्य
अट् तत्र सप्तमी अर्थः किञ्चित् भिन्नः तद् अधुना मास्तु केवलम् अत्र आगमः प्रथमान्तम् अस्ति इति अट् इति आगमः प्रथमान्तम् अस्तु
योगपट् योग इट् अपठ उदाहरणरूपेण योगपट् योग इट् अपठत् इति आगमः अत्र पट् उदाहरण
पट् इति धातुः तका त इति प्रत्ययः अपठत् इति सामान्यपदमस्ति यथा लङ्लकारे सर्वदा भवति अगच्छत् अपठत् अलिखत् तत्र अकारः इति यः दृश्यते सः आगमः अधुना महोदय एषः आगमः अडि अडागमः अथवा अट् इति आगमः कस्यचित् स्थाने भवति वा यस्य आगमः तत् पूर्वं वा परं वा आगच्छति न तु कस्यचित् स्थाने इति खलु वार्ता आदेशः इति पश्यतु आदेशस्य स्थले किम् अभवत्
आदेशः तत् स्थाने एव भवति
यत्र आदेशः भवति यत्र आदेशः भवति तत्र एकं षष्ट्यन्तं पदं भवति खलु इकः यणचि किन्तु अत्र कास्ति का गतिः अत्र तादृशस्थितिः अस्ति वा इति
अत्र आदेशः भवति तस्य वर्णेन एव वर्णस्य एव
नाम
आदेशः इति चेत् इक् इक् वर्णः आगमः अस्ति चेत् इक् वर्णे स्थाने एव आदेशः भवति
अत्र अवगन्तव्यमस्ति यत् आदेशः आगमः अनयोः महान् भेदः अस्ति अस्तु आदेशः कस्यचित् स्थाने आगच्छति अथवा रीप्लेस् करोति इति वक्तुं शक्नुमः एकस्य वर्णस्य स्थाने आगत्य तिष्ठति आदेशः परन्तु यत्र आगमः भवति चेत् कस्यचित् अपि स्थाने न आगच्छति इदानीं पट् इत्यस्य आगमः खलु अडागमः पट् इत्यस्य धातोः आगमः तस्मात् पूर्वम् आगच्छति कुत्रचित् पुक् पुक् इति आगमः अस्ति चेत् परमागच्छति आगमः रीप्लेस् न करोति कमपि वर्णं रीप्लेस् न करोति नाम कस्यचिदपि स्थाने न आगच्छति आगमः आदौ वा अनन्तरं वा मध्ये कुत्रचित् वा आगच्छति इति आगमः तदर्थमेव पूर्वमपि एकवारम् उक्तं मया आदेशः शत्रुवत् आगमः मित्रवत् इति वदन्ति अस्तु तर्हि प्रथमाविभक्त्याः प्रयोजनद्वयम् इदानीं दृष्टम् आदेशः आगमः अग्रिमं किमस्ति अत्र प्रश्नः समीचीनः किन्तु अट् इति प्रत्याहारः नास्ति अट् इति आगमः अट् इति कश्चन आगमः अस्तु तत्र अट् इत्यस्मिन् आगमे हा सत्यं यदा प्रक्रियायाम् आगच्छति इत्युक्ते अट् इति आगमः उपदेशावस्थायां नाम आरम्भे मूलरूपम् अट् इति अस्ति किन्तु यदा कार्यं कर्तुम् आगच्छति तदा टकारः अपगच्छति केवलम् अ इति अवशिष्यते अत्र अट् इति प्रत्याहारः नास्ति आगमः अस्ति इति अवगन्तव्यं तदेव आगच्छति लङ्लकारे अट् इति आगमः इति प्रदर्शितमस्ति अत्र अस्तु महोदय अग्रे
नामकरणं सुप्तिङन्तं पदं सुबन्तं च तिङन्तं च पदसंज्ञकौ भवतः इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति सुप्तिङन्तं प्रथमान्तं पदं प्रथमान्तम् सुबन्त तिङन्त इत्यानि पदम् उद्भवन्ति
अत्र अत्र नामकरणं कृतमस्ति खलु पदम् इत्युक्ते किं
पदं सुप्तिङन्तं अथवा तिङन्तम् सुभन्तम् अथवा तिङन्तम् पदम्
हा तदेव पदं कोऽपि पृच्छति चेत् पदम् इत्युक्ते किम् इति अथवा कोऽपि पृच्छति चेत् भवतः नाम किम् इति तदा भवान् यद् वदति बालसुब्रह्मण्यः इति यदा वदति तत्तु प्रथमान्तमेव भवति खलु नाम संज्ञा हा तद्वदेव पदम् इत्युक्ते किम् इति कोऽपि पृच्छति चेत् सुबन्तम् अथवा
तिङन्तम्
इति पदम् इति वदामः तदर्थं प्रथमाविभक्त्यामेव भवति नामकरणम्
अस्तु रामः रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति सुप्पन्ते यस्य सः सुबन्तं सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति एवमेव वद् योग अयोगति वदति वदति इत्यस्य अन्ते ति इति तिङ्प्रत्ययः अस्ति तिङन्ते यस्य सः तिङन्तम् तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति सरलमेव
समीचीनं महोदय अस्तु तत्र उदाहरणद्वयं दत्तं प्रथममासीत् सुबन्तं नाम सुप्रत्ययः अन्ते भवति रामपदस्य अन्ते तदर्थमेव रामः इति प्रथमाविभक्ति विभक्त्यन्तपदं निष्पन्नं भवति तद्वदेव ति इति तिङ्प्रत्ययः वयं जानीमः दशमे पुटे प्रदर्शितमस्ति खलु इति तिङ्प्रत्ययः तर्हि तिङ्प्रत्ययः अन्ते यस्य सः तिङन्तं सुप्रत्ययाः अन्ते यस्य सः सुबन्तम् इति कृत्वा उदाहरणद्वयं प्रदर्शितमस्ति पदस्य उदाहरणम् अस्तु तर्हि इदानीं षष्टिविभक्ति इत्युक्ते स्थाने प्रथमा विभक्ति इत्युक्ते आदेशः आगमः अथवा नाम अस्तु इति जानीमः इतः अग्रे गत्वा सप्तमी विभक्ति इत्युक्ते किम् इति ज्ञातव्यम् अस्ति लक्ष्मी भगिनी पठति वा
आं भगिनी सप्तमी विभक्तिः पूर्वकार्यं सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः नाम निर्दिष्टं कार्यं तस्मात् पूर्वमस्ति इको यणचि इकः स्थाने यन् आदेशः भवति अचिपरे इकः षष्ट्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तम् इकः यन् अचि संहितायाम् इति आनुवृत्तिसाहित्यसूत्रम् अत्र सप्तमी विभक्तिः इत्युक्ते किम् इति दत्तं साधारणतया सप्तमीविभक्ति इत्युक्ते अधिकरणकारकं परन्तु अत्र पाणिनेः सूत्रेषु सप्तमीविभक्ति इत्युक्ते पूर्वकार्यम् इत्युक्ते सूत्रे सप्तमी विभक्त्यन्त पदम् आगच्छति चेत् तस्मात् पूर्वम् एव कार्यं भवति इति अर्थः
समीचीनं भगिनि इत्येव अस्ति तस्य इतोपि सुदृढतया अवगमनार्थम् अग्रे किञ्चित् अधोभागे गच्छतु तत्र करपत्रे त्रीणि इति सङ्ख्या अस्ति खलु उदाहरणं यण् सन्धिः इति पश्यति वा नम्बर् त्री उदाहरणम् इति दत्तम् इदानीं तद् पठित्वा उदाहरणं पठित्वा इदानीं किञ्चित् प्रतिपादयतु कथं कार्याणि कुर्वन्ति विभक्तयः इति सर्वे पश्यन्ति वा तत्र त्रीणि इति सङ्ख्या भगिनी अधुना पठति उदाहरणं यण् सन्धिः इति अस्ति
उदाहरणार्थं कुत्र भगिनि
अत्र टु इति अस्ति खलु नम्बर् टु व्याख्यानस्य आकृतिः तद् त्यक्त्वा अग्रे गच्छतु त्रीणि इति अस्ति उदाहरणं यण् सन्धिः इति प्राप्तं
सूत्रे पदानां विभक्तयः इति वा
न भगिनि अधोभागे
अधोभागे उदाहरणं यण् सन्धिः अत्र यदि योगः अपि इकारस्य स्थाने यकारादेशो भवति तदर्थं यद्यपि इति भवति इको यणचि इकः स्थाने यण् आदेशः भवति अचिपरिसंहितायां विषये पुनः तदेव अत्रापि अस्ति इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदम् इदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति इकः यण् अचि संहितायाम्
इति सूत्रार्थः अस्तु वयं वारं वारं पठितवन्तः इको यणचि इत्युक्ते इकः षष्ट्यन्तम् इत्युक्ते तस्य स्थाने यण् इति आदेशः भवति अचि सप्तम्यन्तं किन्तु भवती अधुना यद् पठितवती सप्तमी विभक्त्याः विषये सप्तमी विभक्ति इत्युक्ते पूर्वकार्यम् इति अस्ति हा तद् अधुना कथं कार्यं करोति अस्मिन् सन्दर्भे इति पश्येम अग्रे पठतु
उपरितने व्याख्याने क्रमेण सूत्रार्थः अस्ति समासस्य अभावात् समासविवरणं नास्ति पदानां विभक्तयः दत्ताः सूत्रे अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति अनुवृत्तिसहितसूत्रम् अन्ते वर्तते अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः
इत्युक्ते सूत्रस्य व्याख्या कथं निर्मीयते अस्मिन् करपत्रे इति प्रदर्शितं तावदेव महोदयः यत्र कुत्रापि सूत्रं ददाति तत्र तत्र एतत् सर्वम् अपि उल्लिखितं भवति इति सूत्रे याः विभक्तयः सन्ति ताः भवन्ति सूत्रस्य व्याख्यायां समासः अस्ति चेत् सूत्रे तदपि अन्तर्भूतः भवति अधिकारः अनुवृत्तिः अपि अन्तर्भूतः भवति इत्यादिकम् अत्र महोदयेन केवलम् एवमेव उक्तं यत्र कुत्रापि सूत्राणि भवन्ति अस्मिन् जालपुटे एतादृशः क्रमः भवति इति अस्तु अधुना परिशीलयामः यत् पूर्वकार्यं कथं भवति इति अग्रे पठतु भगिनि
यदि योगः अपि इकारस्य स्थाने यकारादेशः अनन्तरं यद्यपि भवति अत्र इकारः इक् प्रत्याहारे अस्ति यकारः यण् प्रत्याहारे अस्ति सूत्रे इक् षष्टिविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति यण् प्रथमविभक्तौ अस्ति अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति अच् सप्तमीविभक्तौ अस्ति अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति कार्यं किम् इत्युक्ते ई स्थाने यकारादेशः य आदेशः अत्र यण्सन्धेः विषये यदि योगः अपि तत्र इकारस्य स्थाने यकारादेशः भवति तदर्थं यद्यपि इति पदम् आगच्छति तस्मिन् तत्र यदि इति पदमस्ति प्रथमं पदं यदि अस्ति तत्र इकारः अस्ति प्रथमपदस्य अन्तिमवर्णः इकारः इकारः इक् प्रत्याहारस्य वर्णः अनन्तरं द्वितीयपदमस्ति अपि शब्दस्य प्रथमवर्णः अकारः अच् प्रत्याहारस्य वर्णः अच्
हा बहु समीचीनमस्ति भगिनि बहु सम्यक् इ इति इक् प्रत्याहारस्य वर्णः अ इति अच् प्रत्याहारस्य वर्णः अधुना सूत्रे इको यणचि इत्यस्मिन् सूत्रे अच् अच् इत्यस्य का विभक्तिः अस्ति
सप्तमीविभक्ति अच् प्रथमाविभक्ति अचि सप्तमीविभक्ति
हा सूत्रे अचि इति सप्तमीविभक्तिः सप्तमी इत्युक्ते
पूर्वकार्यं
पूर्वकार्यं तर्हि कार्यं कुत्र जातम् अत्र यदि योगः अपि इत्यस्मिन् उदाहरणे कार्यं कुत्र जातम्
इकारस्य स्थाने यकारादेशः अकारात् पूर्वं
हा हा समीचीनम् इत्येव अर्थः सर्वे अवगच्छन्ति खलु अभिनवमहोदय अवगतं वा अचि इति सप्तम्यन्तं तर्हि यथा भगिनी उक्तवती अकारः अस्ति खलु अपि इत्यस्य अकारः अच् प्रत्याहारे अस्ति अचि इति सूत्रे सप्तम्यन्तम् अस्ति इत्यतः तस्मात् अकारात् पूर्वं कार्यं भवति इति सूत्रार्थः तादृशः अर्थः निहितः अस्ति पाणिनीयसूत्रेषु अचि इत्युक्ते पूर्वकार्यम् इकः अथवा षष्टि इत्युक्ते स्थाने आदेशः इति नामकरणम् आगमः आदेशः चेत् प्रथमा विभक्ति अस्तु समीचीनम् अतः किञ्चित् अवगमनं जातम् इति मन्ये अधुना पुनः उपरितनभागं गच्छतु तत्र पञ्चमी विभक्तिः इति अस्ति राधिका भगिनी पठति वा पञ्चमी विभक्तिः
आं भगिनि पठामि पञ्चमी विभक्ति परकार्यं सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः नाम निर्दिष्टं कार्यं तस्मात् परम् अस्ति इति यत्र पञ्चमी विभक्ति पश्यामः तत्तु सूचयति परकार्यम् इति तस्य परस्य कार्यं भवति इति दशाभ्यां नो नः समानपदे रेफ शकाराभ्यामुतरस्य नकारस्य नकारादेशो भवति समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः दशाभ्यां पञ्चम्यन्तं नः षष्ट्यन्तं नः प्रथमान्तम् इति
हा किञ्चित् विवरणं ददातु सूत्रे पञ्चमी विभक्त्यन्तं किमस्ति
अस्तु दशाभ्याम् इति पञ्चमी विभक्ति नो नः समानपदे अस्तु नशाभ्याम् इति पञ्चमी विभक्ति रेफा शकार अस्ति चेत् नो नः 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 द्वौ अपि प्रथमा विभक्ति सो रकारशकार
वस्तुतः अस्तु भवती प्रथमं यदुक्तवती तत् समीचीनमेव पञ्चमी विभक्ति इत्युक्ते यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं भवति अत्र किञ्चित् भ्रमः जनयति इदं वाक्यम् इति अवगच्छामि इत्युक्ते कार्यं यत्र भवति तत्तु पञ्चमी विभक्त्यान्तात् परं भवति अनन्तरं भवति तर्हि रसाभ्याम् इति पञ्चम्यन्तम् अस्ति खलु
अस्तु अस्तु
हा तद् दृष्ट्वा किम् अवगन्तुं शक्नुमः
अवगन्तुं शक्नुमः यत् रेफा शकार अनन्तरं कार्यं भवति इति
हा हा समीचीनं रेफशकाराभ्याम् अनन्तरं परं कार्यं भवति कार्यं किम् इति नोणः नाम नः इति षष्ट्यन्तम् अस्ति तत्र हलन्तपदमस्ति यथा इक् आसीत् तद्वत् न इति षष्ट्यन्तं तर्हि न इति प्रथमान्तं नः इति षष्ट्यन्तं नः इत्युक्ते स्थाने अस्तु नः नाम नकारस्य स्थाने नकारः न इति णत्वम् आगच्छति इति कार्यम् एतावत्पर्यन्तम् इदं सूत्रं न दृष्टम् अस्माभिः तर्हि चिन्ता मास्तु एवमेव उदाहरणमस्ति पञ्चमी परकार्यम् इत्यस्य तदर्थमेव एतानि पदानि निर्मितानि वर्णः पूर्णः रामेण पुष्पाणि इति नाम तत्र सर्वत्र रकारोत्तरवर्ति नकारः अस्ति चेत् तत्र नकारः भवति इति. रामेण इति पदं पश्यतु, तत्र रकारः अस्ति तदनन्तरं नकारः, नकारः आसीत् किन्तु अनेन सूत्रेण नकारः जातः. तर्हि आहत्य रकारात् अनन्तरम् अथवा रकारात् परमेव कार्यं जातं, न तु रकारात् पूर्वम् इति. तद्वदेव
भगिनी इत्युक्ते सूत्रेण भवति वा सूत्रेण इति
सूत्रेण इति वक्तव्यं. तत्र इतोपि एकं सूत्रमस्ति, सूतर इन इति अस्ति खलु, तत्र इन इत्यस्य सूत्रेण इति आगच्छति, तदनन्तरं नकारः भवति सूत्रेण इति एव. साधु अस्तु इति वार्ता अस्ति. परकार्यं पञ्चमी विभक्ति इत्युक्ते परकार्यम् इति मनसि निधाय अधुना अग्रे सरेम. अग्रे भगिनि राधिका भगिनी एव.
अस्तु रेफ शकाराभ्य उत्तरस्य अभवत् खलु,
तदभवत् अत्र इ इति अस्ति खलु,
अस्तु. तृतीया विभक्तिः संयोजनं सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इति अर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. सूचयति यत् यत्र तृतीया विभक्तिः अस्ति तत् सूचयति तस्य परं वा पूर्वं वा कार्यं भवति इति.
तृतीया विभक्ति यत्र भवति तत्र कार्यं पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति
अस्तु. स्तोस् स्चुना स्चुः सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति. शकारस्य चवर्गस्य च योजनेन इति भवति अत्र. स्तोः षष्ट्यन्तं, चुना तृतीयान्तं, चुः प्रथमान्तं, स्तोः चुना चुः संहितायाम् इति विषयः. अत्र सकारस्य तवर्गस्य च स्थाने सकारः सकारस्य परः
एकनिमिष कस्यचित् गृहे दूरवाण्याः राजी भगिनि किञ्चित् म्यूट् करोमि हा. अस्तु अग्रे भगिनि राधिका भगिनी.
अस्तु सकार तकार संहितायां सन्धिविषये सकारः शकारः भवति.
हा अस्मिन् सूत्रे स्तोः श्चुनाश्चुः इति सूत्रमस्ति, तस्मिन् सूत्रे कस्य पदस्य का विभक्तिः इति वदतु प्रथमतया.
अस्तु स्तोः इति षष्टिविभक्ति, श्चुना इति तृतीया विभक्ति, श्चुः इति प्रथमा विभक्ति.
स्तोः इति षष्टिविभक्ति यथा गुरुः, गुरुशब्दस्य षष्टिविभक्ति का
गुरोः
तद्वदेव. तत्र पाणिनिना पुनः संक्षेपेण उक्तः सकारः अपि च तुका तु इत्युक्ते तवर्गः हा तु संक्षेपार्थे उक्तः, परन्तु तु इत्यस्मिन् त थ द ध न इत्येते वर्णाः अन्तर्भूताः सन्ति. तद्वदेव श्चु इत्युक्ते शकारः अपि च चवर्गस्य व्यञ्जनानि इति. चु इत्यस्मिन् हा तदर्थम् उकारान्तपदवत् अस्ति गुरुपदवत्. गुरुपदस्य षष्टिविभक्ति किं
गुरोः
हा गुरुपदस्य तृतीया विभक्ति
गुरुणा
गुरुणा इति
गुरुणा अस्तु
गुरुणा अथवा शिशु इति वदामश्चेत् शिशुना इति भवति खलु तद्वदेव अत्र किं किम् अस्ति विभक्तिः का का विभक्ति
अत्र षष्टिविभक्ति तृतीया विभक्ति अण्ड् प्रथमा विभक्ति अस्ति षष्टिस्थाने प्रथमा विभक्ति आगच्छति इति
समीचीनं समीचीनं भगिनि तत्तु अवगतं तर्हि सर्वैः कृपया अवधानं ददातु स्तोः षष्ट्यन्तं तस्य स्थाने प्रथमाविभक्त्यां किं पदमस्ति
शकार चकावर
चकार श्चुः इति पदमस्ति तर्हि स्तोः तस्य अर्थः अस्ति यत् स्तोः स्थाने श्चुः आगच्छति
श्चुः आगच्छति
कदा आगच्छति इति मध्ये स्थितवर्णः पदं किम्
शकार अथवा सवर्ग
सवर्गस्य संयोजनेन
संयोजनेन अस्तु
तदर्थमेव उक्तं तृतीया विभक्त्यन्तः वर्णः इत्युक्ते निर्दिष्टेन कार्येण संयुक्तः भवेत् इति अत्र निर्दिष्टः कार्यम् अस्ति श्चुः इति कार्यं खलु श्चुः इति आदेशः स्तोः स्थाने आगच्छति श्चुः तर्हि श्चुना इत्युक्ते यदा सकारतवर्गीयव्यञ्जनानां षकारचवर्गीयव्यञ्जनैः सह संयोजनम् अथवा सम्पर्कः भवति तदा श्चुः इति आगच्छति इति तर्हि अग्रे उदाहरणं परिशीलयतु भगिनि
अस्तु अन्यत् योगः च अन्यच्च अत्र तकार अस्ति स्तोः इति इति प्रत्याहारे सवर्गः अस्ति अनन्तरम् अस्ति चवर्गः अथवा तकारः भवति अन्यच्च
कस्य स्थाने किम् आगतम् अत्र
हकारस्य स्थाने चकारः आगच्छति
हा समीचीनं नाम स्तोः श्चुः अभवत् अथवा तोः तु इत्यस्य चु आदेशः अभवत् कदा चकारस्य संयोजनेन इति इति अस्ति तृतीया विभक्त्याः अर्थः तृतीया विभक्ति इत्युक्ते संयोजनम् अग्रिमकरपत्रे यदि समयः अस्ति अद्य पश्येम उदाहरणं विपरीतदिशि अपि उदाहरणमस्ति अत्र अन्यत् योगः च तकारात् परः चकारः अस्ति खलु तद्वत् क्षम्यतां चवर्गवर्णात् परः तकारः तथापि भवितुमर्हति उभयता भवितुमर्हति तृतीया विभक्तिः इत्युक्ते इति तृतीया विभक्त्याः अर्थः अस्ति
भगिनि एकः प्रश्नः अस्ति सर्वदा तृतीया विभक्तिः षष्टिविभक्ति सह एव आगच्छति वा सूत्रे
इत्युक्ते हा किमर्थं तादृशप्रश्नः भगिनि इत्युक्ते
अत्र श्चुना इति अस्ति तस्य सम्बन्धः स्तोः इति पदस्य सह अस्ति अतः अहं पृच्छामि अत्र स्तोः इति षष्टिविभक्ति विभक्त्यन्तं श्चुना तृतीयविभक्त्यन्तं कथं जानीमः श्चुना इत्यस्य सम्बन्धः स्तोः इति पदस्य सह अस्ति इति
स्तोः इति पदेन सह अस्ति इति कथं जानीमः इति वा इत्युक्ते तादृश अर्थः निहितः अस्ति भगिनि स्तोः इति षष्ट्याम् अस्ति चेत् अवश्यं तस्य स्थाने किमपि कार्यं भवति अन्यत्र कुत्रापि न भवितुमर्हति खलु
अतः सर्वत्र सर्वदा तृतीयविभक्ति षष्टिविभक्ति सह एव आगच्छति वा
नाम उदाहरणद्वयं जानीमः अधुना स्तोः श्चुनाश्चुः श्टुनाष्टुः इति उदाहरणद्वयं तत्र सर्व तयोः उभयोः अपि तत्र स्तोः इति अन्तर्गतः तर्हि प्रायः तथा स्यात् कस्य स्थाने भवतु इति ज्ञातव्यं भवति खलु तदर्थं स्यात् एव
भगिनि तृतीया विभक्ति सदैव सन्धिकार्यं कृते भवति
इत्युक्ते केवलं सन्धिसूत्रेषु इति वा?
आम् आम्,
तत्र चिन्तनीयं भवति, प्रायः तथा अस्ति, यतोहि
संयोजनम् इत्युक्ते
हा संयोजनम् इति सन्धिविषयः एव वर्णयोः मध्ये एव भवति खलु, तर्हि प्रायः तृतीया सन्धिकार्यमेव इति चिन्तयामि. अस्तु अस्तु, हा अग्रे सरला भगिनी भवत्येव अग्रे पठतु इदानीम्
अग्रिम एकः प्रश्नः. अतः सूत्रं स्तोः स्चुः कथं न दीयते, चुना
स्तोः इदानीं पश्यतु, स्तोः स्चुः इति वदामश्चेत् सकारतकारयोः स्थाने सकार अपि च तवर्गीयव्यञ्जनानां स्थाने षकार च वर्गीयव्यञ्जनम् इति अर्थः तु अस्ति, परन्तु अधुना प्रश्नः उदेति खलु कस्यां दशायाम् इति, तदर्थं किञ्चित् वक्तव्यं भवति. तथा एव सर्वत्र इदानीम् इको यणचि इत्यस्मिन् अपि इकः अचि इति वदा क्षम्यताम् इकः यण् इति वदामि चेत् तत्र कस्यां दशायां कदा इकः यण् भवति, अचि परे इति अर्थः खलु महोदय?
आम्, परन्तु अत्र चुना तृतीयान्तं केवलं संयोजनं
स्तोः इति यदस्ति तकारः अथवा सकारः तेन सह यदा षकारः अथवा चकारस्य संयोजनं भवति, नाम षकारः अथवा चकारः पूर्वमपि भवितुमर्हति अनन्तरमपि भवितुमर्हति इति अर्थः. अवगच्छति वा महोदय? एवं कुर्मः, अग्रिमकरपत्रे उदाहरणम् इतोपि सम्यक्तया दीयते, तद् पश्येम एकवारम्.
भगिनि ब्रह्म भवति कारणं कि आदेश तस्य वर्णः षकार चकारवर्गीय तृतीयाविभक्ति संयोजनं तस्य वर्णः समानः अस्ति, तदेव ब्रह्म भवति.
हा समीचीनं भगिनि, भ्रमः सर्वदा भवति यतोहि समानवर्णः, किन्तु विभक्तिं दृष्ट्वा ऊहां कर्तुं शक्नुमः खलु. आदेशः स्चुः एव भवितुमर्हति यतोहि किमर्थं
प्रथमाविभक्ति अस्ति.
हा स्चुः इति गुरुः शब्दः इव प्रथमाविभक्त्याम् अस्ति, तर्हि स्चुः एव आदेशः. अधुना स्चुः आदेशः चेत् कस्य स्थाने इति प्रश्नः आगच्छति खलु.
अस्तु, कारण किस्तोः अस्ति सकार षष्ठीविभक्त्यान्तम् अस्ति अत्र अन्य इति.
हा सकार तकार तवर्गीयव्यञ्जनानां स्थाने एव अयम् आदेशः आगन्तुम् अर्हति यतोहि स्तोः इति षष्ठ्यन्तम्.
अत्र चकार तृतीया विभक्ति अस्ति, अन्यत् योग चुनात् चकार तृतीया विभक्त्यन्तम् अस्ति.
हा तत्तु तृतीया विभक्त्यन्तम् अन्यत् पदं तु संयोजनम् एव सूचयति. अस्तु, तदर्थमेव पाणिनिना विभक्त्याः भिन्न अर्थं कल्पयित्वा सूत्रेषु स्थापितं, तदर्थेन अस्माकं स्पष्टता जायते. अस्तु, षष्ट्यन्तम् इत्युक्ते तस्य स्थाने आदेशः भवति, प्रथमान्तम् इत्युक्ते आगमः आदेशः अथवा नामकरणं, मध्ये तृतीयान्तम् अस्ति तस्य अर्थः अस्ति संयोजनम् अथवा सम्पर्कः, तावदेव इत्यनेन जानीमः. अस्तु अस्तु, तर्हि इतः अग्रे सरेम. अग्रिमबिन्दुः अस्ति व्याख्यानस्य आकृतिः इति, तद् त्यजतु यतोहि केवलम् अस्मिन् जालपुटे सूत्राणि कथम् उल्लिखितानि इति एव अस्ति, तावदेव सूत्रस्य अर्थः समासाः सूत्रे विभक्तिः अनुवृत्तिः इत्यादिकं तादृशव्याख्या भवति. इदानीं चतुर्थबिन्दुं पश्यतु भगिनि, नम्बर् 4 इति अस्ति खलु सरला भगिनी, तत् पठित्वा किञ्चित् प्रतिपादयतु.
पाणिनीयसूत्राणि षड्विधानि, संज्ञा या परिभाषा च विधि नियम एव च, अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणं. संज्ञा पाणिनीयसूत्राणि तस्य तेषां षट् प्रकाराणि सन्ति, संज्ञा परिभाषा विधि नियम अतिदेश अधिकार एकम् अतिदेश अधिकार अस्ति संज्ञासूत्रं येन नामकरणं क्रियते सुप्त्यङ्कं पदं वयं जानीमः सुप्त्यङ्कं पदं किमस्ति अन्तम् अस्ति नामकरणानि पदानि तस्य निर्देशं करोति तिङन्तं पदं क्रियापदानि तस्य निर्देशं करोति तस्य नामकरणम् अस्ति सुप्त्यङ्कं पदं द्वितीय परिभाषासूत्रं यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियम्यति स्थाने अन्तरतम् अत्र एकाकी एव यदि सूत्रमस्ति तस्य कोऽपि अर्थं न भवति यदि अनेन सूत्रेण सः आगच्छति तस्य नियम निर्दशति यथा एको यणचि इक ई स्थाने य आदेश भवति ओ स्थाने व आदेश भवति तस्य स्थाने अन्तरतम् इति सूत्रस्य कार्यम् आगतुं निर्देशति.
हा हा बहु समीचीनमस्ति भगिनि. नाम परिभाषासूत्रम् एकाकी किमपि कार्यं न कर्तुं शक्नोति. अस्तु, अपरेषां सूत्राणाम् अर्थपूरणार्थमेव भवन्ति यथा स्थानेऽन्तरतमः. भगिनी उदाहरणमपि दत्तवती इकोयणचि इति सूत्रेण इकारस्य स्थाने यकारः इति कथं जानीमः स्थानेऽन्तरतमः इति सूत्रस्य साहाय्येन. अस्तु, अग्रे इतोपि गभीरतया परिशीलयाम. अधुना अग्रे सरेम षड्विधानि सूत्राणि कानि इति.
तृतीयविधिसूत्रं येन कार्यं विधीयते इकोयणचि. इकोयणचि विधायकसूत्रम् अस्ति. अनेन सूत्रेण कार्यं विधीयते. तस्य नाम अस्ति विधिसूत्रं. चतुर्थम् अस्ति नियमसूत्रं येन पूर्वात् विद्यमाननियमसीमितो भवेत् राक्षस्य. भगिनी अहं न अवगच्छामि तत् नियमसूत्रम्.
अस्तु, तर्हि नियमसूत्रम् इत्युक्ते तादृशसूत्रं येन पूर्वं विहितं कार्यं सीमितं भवति. अस्तु, तर्हि राक्षस्य एकस्य सूत्रस्य कार्यं लघु करोति, कार्यक्षेत्रं सीमयति. सीमास्थापनम् इत्युक्ते बौण्ड्रि खलु.
अस्तु,
राक्षस्य एकं सूत्रमस्ति राक्षस्य इत्यस्मात् पूर्वं स्कोः संयोगान् द्योरन्ते च इति किमपि सूत्रमस्ति. नाम तत् सूत्रं वदति यत् संयोगस्य अन्ते यः वर्णः अस्ति, संयोगः इत्युक्ते स्वराणाम् अभावः खलु. यत्र इदानीं द्रव्यम् इति वदामिश्चेत् दकारः रकारः तयोः मध्ये स्वरः नास्ति इति कृत्वा संयोगः तर्हि इदानीं चिन्तयतु यत् एकं सूत्रं वदति यत् तादृशसंयोगः भवति चेत् संयोगस्य अन्तिमवर्णस्य लोपः भवेत् इति तादृशं सूत्रं वदति एकं सूत्रम्. अस्तु, पुनः राक्षस्य आगत्य वदति तथा तदा सर्वत्र न भवति. यदा संयोगः रकारात् परः भवति तदा एव लोपः भवति इति किमपि तथा वदति. इत्युक्ते कार्यक्षेत्रं बृहदास्ति आसीत् तस्य क्षेत्रं लघु करोति. तादृशसूत्राणि नियमसूत्राणि इति अष्टाध्याय्याम्
अस्माकं कार्यक्षेत्रस्य सीमितं करोति.
हा, बृहान् नियमः भवति तस्मिन् नियमे सीमां स्थापयति.
अस्तु, अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य
कस्यचित् प्रश्नः
क्षम्यताम्. नियमसूत्रम् एव अपवादसूत्रमपि वा अथवा अपवादसूत्रं भिन्नः अस्ति वा?
हा, तत्र किञ्चित् भेदः अस्ति. इत्युक्ते अपवाद हा तथा कदाचित् वक्तुं शक्नुमः, परन्तु लघु सूक्ष्मः भेदः अस्ति. यतोहि अपवादस्य सामान्यतया यत्र यत्र अपवादः तथा भवति यत्र कार्यं न करोति चेत् तत्सूत्रम् अन्यत्र कार्यं कर्तुमेव न शक्नोति. तत्र कार्यं करणीयमेव, नो चेत् निष्प्रयोजकं भवति सूत्रं. तादृशसूत्राणि अपवादसूत्राणि. इति वदामः. सूक्ष्मः एव भेदः अस्ति. मम मनसि अपि प्रश्नः अस्ति, सर्वदा अपवादसूत्राणि नियमसूत्राणि वा नियमसूत्राणि अपवाद, परन्तु अपवादसूत्रेषु मनसि एवं निधाय प्रवर्तनीयमस्ति यत् अपवादसूत्रम् अत्र कार्यं न करोति चेत् अन्यत्र लब्धावकाशः न भवति. तादृशसूत्राणि अपवादसूत्राणि इति.
किमर्थम् अपवादसूत्रम् अत्र एकविधम् इति न उक्तम्?
यतोहि अपवादसूत्रमपि विधिसूत्रं खलु. अपवादेन इति अपि किञ्चन कार्यं विधीयते. अग्रे भगिनि.
अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावपरिवर्ते सार्वधातुकं इति सूत्रेण यः ङित् नास्ति स ङित्वित् स्यात्. यः अन्य कस्य पदस्य स्वभाव परिवर्तनं करोति, यथा सार्वधातुकम् अपित् यत्र अपित् अस्ति तत् ङित् अपि नास्ति ङित्वित् भवति. यदा विधिलिङ्गे कार्यं भवति तत्र लङ् लोट् लकारे अपि लङ् लकारे तथा भवति कार्यं व्याकरणे.
सत्यं सत्यम् इति बहूनि उदाहरणानि सन्ति. नाम सन्धिविषये प्रायः किमपि नास्ति इति चिन्तयामि. अतिदेशसूत्रम् इत्युक्ते स्वभावं परिवर्तयति इत्युक्ते नूतनस्वभावम् आरोपयति इति अतिदेशः इति चिन्तयतु. नूतनस्वभावम् आनयति यत्र स्वभावः नासीत् तत्र. अस्तु अग्रे भगिनि.
अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायां अधिकारसूत्रं पूर्णम् आगत्य अन्यसूत्रस्य अर्थं स्पष्टं करोति. यथा संहितायाम् इको यणचि अनुवृत्तिसंहितायां सन्धि विषये इको यणचि विधायकसूत्रं कार्यं करोति.
हा इत्युक्ते संहितायाम् इति तादृशसूत्रम् अस्ति यत् पूर्णतया अपरेषु सूत्रेषु आगत्य उपविश्य कार्यं करोति. तादृश कानिचन सूत्राणि सन्ति यत् पूर्णतया आगच्छति. नाम अनुवृत्ति इत्युक्ते पूर्वस्मात् सूत्रात् एकं वा द्वे पदे वा चित्वा अनन्तर आगतसूत्रेषु स्थापनम् इति अनुवृत्तिः खलु. अधिकारसूत्रविषये तथा नास्ति. अधिकारः पूर्णतया सामान्यतया पूर्णतया उपविश्य अपरेषु सूत्रेषु कार्यं करोति इति. संहितायां विषये इत्युक्ते सन्धिः अथवा सामीप्यं यथा यदा भवति तत्र, तर्हि प्रायशः सर्वाणि सन्धिविधायकसूत्राणि संहितायाम् इत्यस्य अधिकारे एव सन्ति. नाम बहुषु सूत्रेषु अधिकारसूत्रम् आगच्छति इति.
सो सन्धिसूत्रेषु परिभाषा विधिसूत्रम् अधिकारसूत्रम् आगच्छन्ति.
हा परिभाषा विधि अधिकारसूत्रं पश्यामः. कुत्रचित् संज्ञासूत्रमपि अस्ति, तत् किम् इति पश्यामः. यदि स्वर समीचीनम् इति संज्ञासूत्रमपि अस्ति. अस्तु इति पाणिनीयसूत्रं कथं पठनीयम् इति विषये आसीत्. किञ्चित् अवशिष्टसमये द्वितीयकरपत्रम् अवलोकयामः. निमित्तम् इति विषयः. राजी भगिनी पठति वा द्वितीयकरपत्रं निमित्तम् इति?
म्यूट् मध्ये आसम् अतः अहं पठामि. एकनिमिषं निमित्तम् निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. यदा वदामः यत् सूत्रे किञ्चन पदं कश्चन वर्णः कश्चन प्रत्याहारः सप्तमी विभक्तौ अस्ति, तदा पूर्वकार्यम् इति उच्यते. नाम यत् पदं सप्तमे विभक्तौ तत् परम् अनन्तरम् अस्ति, अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं न भविष्यति. इको यणचि अचि सप्तमे विभक्तौ, अच् वर्णः परं कार्यं पूर्वं. कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति. उदाहरणं यदि योगः अपि यद्यपि. अग्रे पठामि वा?
पठतु भगिनि अग्रे.
अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं? नैव. अतः सः अकारः कार्यस्य निमित्तं. कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यम् ई य न भवति, इकारः यकारः न भवति. यदि अत्र केवलं यदि यदि पदम् अस्ति चेत् इकारः यकारः इति कार्यं भवति वा? न भवति किल. निमित्तस्य अभावे यदि यतावत् तिष्ठति. पञ्चमी विभक्तम् अस्ति तदा परकार्यम् इति उच्यते. नाम यत् पदं पञ्चमे विभक्तौ तत् पदं पूर्वम् अस्ति, अपि च तत् कार्यस्य निमित्तम् अथवा कारणं निमित्तस्य अभावे कार्यं न भविष्यति.
अस्तु भगिनि, एवं कुर्मः. तर्हि निमित्तम् इति कश्चन विचारः अस्ति. निमित्तम् इत्युक्ते कार्यस्य हेतुः अथवा कारणं. कार्यं प्रवर्तयितुं, कार्यं प्रवर्तयितुं, यत् नाम पाणिनिना कार्यं कर्तुं निर्देशः दातुं यत् कारणत्वेन भवति तद् निमित्तम् अस्ति. अस्तु, यथा वयं जानीमः निमित्तं सप्तमी विभक्त्यां भवितुमर्हति, पञ्चमी विभक्त्यामपि भवितुमर्हति, तृतीयायामपि भवितुमर्हति. अत्र अस्माकं सप्तमी विभक्त्यां भवतु अवधानं, यतोहि सन्धिविधायकसूत्रमस्ति. तर्हि किञ्चित् वदति वा भगिनि तत्र तस्य विषये यत् पठितं भवत्या?
सप्तमी विभक्तौ इको यणचि इति उदाहरणं. अत्र अचि न अस्ति चेत् अचि परं न अस्ति चेत् कार्यं न भविष्यति. इकः इकारस्थाने यण् यकारः न आगच्छति. इकारस्य स्थाने एव यकारः आदेशः भवति किल. अचि परम् अस्ति चेत्, अचि न अस्ति चेत् न भवति.
न भवति. अस्तु, नाम यदि योगः अपि इत्यत्र यदि अपि इति नास्ति चेत् किमपि कार्यं भवति वा?
न, किमपि कार्यं न भवति.
हा, किमपि कार्यं न भवति. अतः निमित्तम् अस्ति सप्तमी विभक्त्याम् अथवा सप्तमी विभक्तौ, उभावपि साधु. निमित्तम् अस्ति अत्र अचि इति सप्तमी विभक्तिद्वारा सूचयति पाणिनिः यद् अस्तु. इक् वर्णात् परः अच् वर्णः अस्ति चेत् अथवा इकः अचि परे किमपि कार्यं भवति. वस्तुतः तथा नास्ति. अस्तु, इकः यण् अचि इति खलु. यद्यपि अत्र उच्यते यत् सप्तमी विभक्तिद्वारा निमित्तं सूचितमस्ति, तथापि वस्तुतः अत्र निमित्तद्वयम् अस्ति. प्रथमम् इकारात् परः अकारः, तदा एव यण्सन्धि भवितुमर्हति. अत्र तु केवलं स्थूलरीत्या उक्तम् अस्ति यत् अस्तु, सप्तमी विभक्त्यामपि अस्ति, पञ्चम्यामपि अस्ति इति. अस्तु, अग्रे राजी भगिनी अग्रे पठति वा पञ्चमी?
पञ्चमीविभक्त्याम् एव, पञ्चमी विभक्तौ एव तादृशकार्यं भवति. इत्युक्ते पञ्चमी विभक्त्याम् अनन्तरं रेपः अथवा पञ्चमीविभक्त्यानन्तरम् एव. एकनिमिषं, रेपः अस्ति अकारः अस्ति चेत् तस्मिन्नेव पदं नकारः अस्ति, तर्हि नकारः न भवति. ओके,
रेपस्य अथवा षकारस्य परे षकारः अस्ति चेत् परे नकारः अस्ति चेत् एव नकारः नकारः भवति न तु न तु न भवति.
समीचीनं भगिनि. इति पञ्चमी विभक्ति. पञ्चमी विभक्ति सूचयति यत् अस्तु एकं निमित्तमस्ति रकारः अथवा षकारः इति एकं निमित्तं पञ्चमीविभक्तियुक्तं. तदनन्तरं ताभ्यां परः नकारः स्यात् इति द्वितीयमपि निमित्तमस्ति. हा, अस्माकम् अवधानं पञ्चमीविभक्त्याम् अस्ति यतोहि कार्यं कुत्र भवति इति ज्ञातुं. तावदेव. तर्हि रसाभ्यां रेफषकाराभ्यां परः यदा नकारः भवति तदा तस्य नकारस्य नकारत्वेन परिवर्तनं भवति इति.
समानपदे एव भवितव्यं.
हा, समानपदे. सत्यं, समानपदे एव भवितव्यम्
एव भवितव्यम्
इति अपि एकं निमित्तं. तदपि सत्यं.
तदा एव नकारः नकारः भवति.
हा, अस्तु, समीचीनं भगिनि. अधुना देवयोगः इन तद् पङ्क्तिं पठति वा, तां पङ्क्तिं.
देवयोग अत्र रामस्य रेपः पूर्वं नास्ति चेत् न देवयोगः इन देवेन अत्र देवशब्दे रेपः नास्ति. अस्यां दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल. निमित्तस्य अभावे देवेन एतावत् तिष्ठति. तत्र रेपः देवशब्दे रेपः अपि नास्ति षकारः अपि नास्ति. अतः देवयोगः इन देवेन एव भवितुम् अर्हति, न तु देवेन.
न तु देवेन इति मुख्यवार्ता अस्ति. तर्हि पञ्चमीविभक्त्या यद् निमित्तत्वेन सूचितं, पञ्चमीविभक्त्या निमित्तत्वेन यद् सूचितं तद् नास्ति देवशब्दे, खलु? रेपः अपि नास्ति, षकारः अपि नास्ति इति कृत्वा इदं सूत्रं कार्यं न करोति. अत्र नकारस्य नकारः न भवति. अस्तु, इदानीम् अन्तिमबिन्दुः अस्ति तृतीया विभक्त्यां निमित्तं यदा भवति इति. अजय महोदय अस्ति वा?
आं भगिनि.
अन्तिमबिन्दुं भवानेव पठित्वा प्रतिपादयतु.
तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते. योगः इत्युक्ते सम्बन्धः. सम्बन्धः इत्यनेन निमित्तं पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. अतः सप्तमी पञ्चमी इत्यनयोः मेलनमिति चिन्त्यताम्. नाम पूर्वकार्यमपि अर्हति, परकार्यमपि अर्हति. अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं तस्य अभावे कार्यं न भविष्यति.
इत्युक्ते महोदय, एतावत् पर्यन्तं किम् अवगतम् इति?
इत्युक्ते तृतीया क्षम्यतां महोदय, इत्युक्ते तृतीया विभक्तौ निमित्तं पूर्वमपि अर्हति, परमपि अर्हति. अतः सप्तमी पूर्वकार्यं पञ्चमी परकार्यम् अर्हति चेत् तृतीया विभक्ति द्वौ मेलनं कृत्वा, सप्तमी पञ्चमी मेलनं कृत्वा इति चिन्तनीयम्.
समीचीनं. नाम तृतीया इत्युक्ते सम्बन्धः, तावदेव. सः सम्बन्धः पूर्वमपि भवतु परमपि भवतु इत्यस्य कोऽपि महत्वं नास्ति. यत्र कुत्रापि भवतु सम्बन्धः अथवा संयोगः, तादृशसंयोगः भवति चेत् कार्यं भवति इति सूचयति.
अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं तस्य अभावे कार्यं न भविष्यति. अत्र तृतीया विभक्तौ निमित्तमस्ति, अत्र तृतीया विभक्तौ नास्ति चेत् शुना नास्ति चेत् स्युः न कार्यं करोति.
समीचीनम्. इति अग्रे उदाहरणमपि पठतु.
स्तोश्चुनाश्चुः सकारतवर्गयोः सकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः. योगः सम्बन्धः इत्यनेन निमित्तं सकारचवर्गः च पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. स्तोः षष्ट्यन्तं, स्चुना तृतीयान्तं, स्चुः प्रथमान्तम्. अन्यत् योगः च अन्ययोगः तकारस्य स्थाने चकारः, योगः च अन्यच्च. अत्र निमित्तं चकारः परम्, चकारः परं निमित्तं चकारः परम्.
इदानीं कार्यं चकारः परम् इति उक्तं, यतोहि कार्यं कुत्र जातम्?
कार्यं पूर्वं. तकारस्य स्थाने चकारः,
तकारस्य स्थाने चकारः इति कार्यं जातम्. अतः तस्य कार्यस्य निमित्तं किं, कारणं किम्?
निमित्तं चकारः तृतीया विभक्ति.
हा, श्चुना इत्यनेन निर्दिष्टः चकारः तृतीया विभक्त्या यः निर्दिष्टः, तादृशवर्णः परम् आगच्छति, अपि च परं स्थित्वा पूर्वं कार्यं जनयति. खलु? पूर्वकार्यम् इत्युक्ते सप्तमी विभक्ति इव कार्यं करोति. सप्तमी पूर्वकार्यम् इति यदा वदामः तद्वत् अत्र कार्यं करोति. इति एकम् उदाहरणम्. अग्रिम उदाहरणं पठतु, अग्रे पठतु.
यज् योगः नकारस्य स्थाने गकारः योगः अह यज्ञः. अत्र निमित्तं जकारः पूर्वं, कार्यं नकारस्य स्थाने गकारः परम्. अत्र
अत्र किम् अस्ति?
परकार्यं, परकार्यम् इत्युक्ते पञ्चमी विभक्ति.
हा हा, पूर्वस्मिन् उदाहरणे अन्यत् योगः च इत्यस्मिन् उदाहरणे सप्तमी विभक्ति इव कार्यम्. अधुना यज् योगः नः इत्यस्मिन् पञ्चमी विभक्ति इव कार्यमस्ति, खलु? उभयत्र यदि निमित्तं न अभविष्यत्, नाम निमित्तम् इत्युक्ते प्रथमस्थले चकारः, द्वितीयस्थले जकारः, यदि निमित्तं न अभविष्यत् उभयत्र, तदा कार्यमपि न अभविष्यत्, खलु? तर्हि तृतीया विभक्त्या एकं निमित्तं सूचितं, तत् पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति, तथा भूत्वा कार्यं कारयति, किमपि परिवर्तनम् आनयति तवर्गव्यञ्जनेषु इति कृत्वा तृतीया विभक्त्या निमित्तं सूचितमस्ति स्तोश्चुनाश्चुः इत्यस्मिन् सूत्रे. अस्तु, अस्तु, इति विषयः अस्ति. अस्तु, अग्रिम अन्तिमवाक्यं पठतु.
अन्तिमवाक्यं, निमित्तं सप्तमी विभक्तौ चेत् पूर्वकार्यं, निमित्तं पञ्चमी विभक्तौ चेत् परकार्यं, निमित्तं तृतीया विभक्तौ चेत् कार्यं पूर्वं परं च. त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः, नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी.
इति अवगतं खलु? निमित्तं भवेत् एव, निमित्तं न भवति चेत् कार्यम् अपि न भवति. अतः निमित्तस्य उपस्थितिः आवश्यकी. निमित्तं सप्तमी विभक्तिद्वारा सूचितं भवति, कदाचित् पञ्चमी विभक्तिद्वारा, कदाचित् तृतीया विभक्तिद्वारा, कदाचित् निमित्तं सूचितं भवति. यत्किमपि भवतु, निमित्तस्य उपस्थितिः आवश्यकी एव कार्यार्थम् इति उक्तम् इति निमित्तम् इति विषयः अस्ति. अस्तु, इति किञ्चित् आस्वादः लब्धः पाणिनीयसूत्रस्य विषये. इतः अग्रे गत्वा स्वरसन्धि इति विषयः अग्रिमवर्गे भविष्यति, सूत्रैः स्वरसन्धेः परिचयः. अत्र कोऽपि प्रश्नः वा? अस्तु, नो चेत् विरमामः. शुभरात्रिः.
धन्यवादः. धन्यवादः. शुभरात्रिः.